इन्द्रस्य युज्यः सखा तद्विष्णो परमं पदं सदा पश्यन्ति सूरयाः दिवि एव चक्षुरातम् तद्विप्रा सो विपन्यवो जागृवांसस्तमिन्